ॐ श्री पवमात्मने नमः। अथ सप्तदशोऽध्यायः शतकविभागयोगः। अर्जुन उवाच, येष कविः मोत्स्वेज्य यजन्ते श्वेतयान्विताः, तेषां निष्ठा तु का कृष्णा सत्त्वमाहो वचस्तमः। श्रीभगवानुवाच, त्रिविधा भवति श्रद्धा, देहिनां सा स्वभावजा, सात्विकी वाचसी चैव तामसी चेति तां शृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भावत, श्रद्धामयोऽयं पुरुषः, यो यश्रद्धा स एव सः।
यजन्ते
ताम
सात्विका,
सात्विका देवान् यक्षवक्षांसि वाजसाः, त्वेतान् भूतगणां शान्ये यजन्ते तामसा जनाः। अष्टा त्वविहितं गोवं तप्यन्ते ये तपो जनाः, तम्बाहङ्कावसंयक्ताः कामवागबलान्विताः। कौशयन्तः शवीवस्तम् पूतग्वां मम चेतसः, वाञ्छैवान्तः शवीवस्तं ते तान् वेद्या शिवनिश्चयान्। आहा वा सात्विका
आहारस्त्वपि,
आहा वस्त्वपि सर्वस्य त्विविदो भवति प्रियः, यज्ञस्तपस्तता दानं तेषां वेदमिमं शृणु। आयुः सत्त्वबलान् भोग्य सुखप्रीति विवर्तनाः, वस्या स्निग्धास्ति वा वेद्याः, आहा वा सात्विकप्रियाः। कद्वं ललवनात् योष्णा तीक्ष्णवृक्षविदाहिनः, आहा वा वाचसस्येष्टाः यजन्ते दुःखशोकामया प्रदाः। यातयामं गतवसं पूतिपयुषितं चयत्, उच्छिष्टमपि चामेद्यम्।
गो अहेड् पटु।
उच्छिष्टमपि चामेद्यं भोजनं तामसप्रियं, कत्वं लवणात् योष्णा तीक्ष्णवृक्षविदाहिनः, आहा वा वाजसस्येष्टाः दुःखशोकामया प्रदाः। आहा यातयामं गतवसं पूतिपयुषितं शयत, उच्छिष्टमपि चामेद्यं भोजनं तामसप्रियम्। अफलाकाङ्क्षिभिर्युक्तैः विदिदिश्रय एज्यसे, यस्तव्यमेवेति मनः समादाय सः सात्विकः। अभिसन्धाय तु फलं तम्बातमपि चैव यत् इज्यते भवस श्रेष्ठ, तं यज्ञविधिवाजसम्। विधिहीनं श्रेष्ठानं मन्त्रहीनम् अदक्षिणम्, श्रद्धा विविहितं यत्त्वं तपस्तप्तं त्रिविधं न्यवैः। देव द्विजगरूपवाग्न पूजनं शौचमौजवां, ब्रह्मचर्यमहिंसा च शावीवं तप उज्यते। अनुद्वेगकवं वाक्यं समादा सत्यं प्रीहितं चयत्, स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते। मन प्रसादा सौम्यत्वं मन मौनमात्मविनिग्रह, पावस्तं श्रुतिवित्येतत् तपो मानसम् उच्यते। श्रद्धया पवया तप्तं तपस्तप्तं त्रिविधं नवैः, अफलाकाङ्क्षिभिर्युक्तैः सात्विकं पविचक्षते।
स सत्कार
सत्कावमान पूजातम तपोदम्बेन चैवयत क्रियन्ते तदिह प्रोक्तम वाजसं शलमध्रुवम् दातव्यम् इति यद्दानम् दीयते नुपकामिने देशे काले च पविक्लिष्टम् तत्तामसं सात्विकस्मृतं यजन्ते यत्युपकारार्थं फलं यज्ञ तपक्रियाश्च
फलमुद्दिश्य
वा पुनः दीयते च पविक्लिष्टं तत्तामसं तत्तामं राजसस्मृतम् अदेशकाले यत्तान्नम् अपात्रेभ्यश्च दीयते अकासत् असत् कृतमवज्ञातं तपोदम्बेन तत्तामसमुदाह्वितम् ॐ तत्सदिति निर्देशः वमनस्तु विदस्मृदः वामनास्तेन वेदाश्च यजन्ते यज्ञाश्च विहिता पुवा तस्मात् ॐ इद्युदा वेद्याः आह यज्ञदानतपक्रियाः प्रवन्तेन विदानोक्ताः सततं वेमवादिना तदित्यान् अपि सन्दायान् फलं यज्ञतपक्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावे च सदित्ये पौतयोज्यते प्रशस्ते कामनि तथा सप्तपौतयोज्यते यजन्ते यज्ञदान्
यज्ञतपसि
यज्ञतपसि दाने च स्थितिः सदति चोच्यते कौम चैव तदतीयं सदत्येवाभिधीयते अश्वत्थया हृदं दत्तं तपस्तप्तं कृतं चयत् अश्वत्थया हृदं दत्तं असदित्युच्यते पौता कृता न चप्त कौमनि तथा
नोयिह
न चप्तः
प्रेत्य नोयिह
न चप्तः प्रेत्य नोयिह ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु यो ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्ण औजनसंवादे श्रद्धया श्रद्धया त्रयविभाग योगो नाम सप्तदशोऽध्यायः